ज्ञानं न चण्डं राजनीतज्ञ विचारे अखण्डम्। बुद्धिविवेकः ज्ञानं न चण्डं राजनीतज्ञ विचारे अखण्डम्। गुणगुणनिधानं रणनीति चतुरं मनैः मन्त्रणा च प्रकाशम् उत्थान उद्भव।